षट्पञ्चाशः सर्गः। ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम् अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम्। ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत। काममस्य त्वमेवैकः कार्यस्य परिसाधने पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः। शरैः सुसङ्कुलां कृत्वा लङ्कां परबलार्दनः मान्नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्। तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः भवत्याह वशूरस्य तथा त्वमुपपादय। तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितं निशम्य हनुमांस्तस्य वाक्यमुत्तरमब्रवीत्। क्षिप्रमेष्यति काकुत्स्थो हरिर्क्षप्रवरैर्वृतः यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति। एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत्। ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः आरुरोहगिरिश्रेष्ठमरिष्टमरिमर्दनः तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतं प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितं प्रपातजलनिर्घोषैः प्राकृष्टमिव सर्वतः वेपमानमिव श्यामैः कम्पमानैः शरध्वनैः वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः मेघपादनिभैः पादैः प्राक्रान्तमिव सर्वतः जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः कूटैश्च बहुधा कीर्णैः शोभितं बहुकन्दरैः सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतं लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतं नानामृगगणाकीर्णं धातुनिष्यन्दभूषितं बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटं महर्षियक्षगन्धर्वकिन्नरोरगसेवितं लतापादपसङ्घातं सिंहाध्युषितकन्दरं व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलद्रुमं तमारुरोह हनुमान् पर्वतं पवनात्मजः रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः तेन पादलताक्रान्ता रम्येषु गिरिसानुषु सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः सतमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः। अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ददर्श सागरं भीमं मीनोरगनिषेवितं समारुत इवाकाशं मारुतस्यात्मसंभवः प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशं स तदा पीडितस्तेन कपिना पर्वतोत्तमः रराश सहतैर्भूतैः प्रविशन् वसुधातलं कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः निपेतुर्भूतले रुग्णाः शक्रायुधहता इव कन्दरोदरसंस्थानां पीडितानां महौजसां सिंहानां निनदो भीमो नभो भिन्दन् सशुश्रुवे स्रस्तव्या विद्धवसना व्याकुलीकृतभूषणाः विद्याधर्यः समुत्पेतुः सहसाधरणीधरात् अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः निपीडितशिरोग्रीवा व्यवेष्टन्तमहाहयः किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा पीडितं तन्नगवरं त्यक्त्वा गगनमास्थिताः स च भूमिधरश्रीमान् बलिना तेन पीडितः सवृक्षशिखरोदग्रह प्रविवेश रसातलं दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः धरण्यान् समतान् यातः स बभूवधराधरः सलिलङ्घयिषुर्भीमं सलीलं लवणार्णवं कल्लोलास्फालवेलान्तमुत्पपातनभो हरिः इत्यार्षे श्रीमद् रामायणे सुन्दरकाण्डे षट्पञ्चाशत् सर्गः।